इमा उवाम भ्रमजो मन्यमाना युवावते न तुज्या अभोवन् क्वा अत्यदिन्द्रावरुणायशो भाञ्जेन स्वासिनम् भरतः सखिभ्यः अजमुवाम् पुरतमो रजीजञ्छश्वत्तममवसेजो हवीति सजोषा अविन्द्रावरुणा मरुद्भर्दिवा पृथिव्या शृणुतम् हवम् मे अस्मे तदिन्द्रावरुणा वसुष्यादस्मे रजर्मरुतः सर्ववीरः अस्मान्वरोत्रे शरणैरवन्तस्मान्होत्रा भारते दक्षिणाभिः बृहस्पते जुषस्वनो हव्यानि विश्वदेव्या रास्वरत्नानि दाशुषे शुचिमर्कैर्बृहस्पतिमध्वरेषु नमस्यत अनाम्योज आचके वृषभञ्जर्षडीनाम् विश्वरोपमदाभ्यम् बृहस्पतिम् वरेण्यम् इयन्ते पोषन्नाघृडे सुष्ठुतिर्दे भनव्यसि अस्माभिस्तुभ्यम् शस्यते ताञ्जुषस्वगिरम् मम वा जयन्ति मवाधियम् वधोजुरिभजोषणाम् यो विश्वाभिविपश्यति भुवनासम् च पश्यति स नः पूषाभिता भुवत् तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धिजो यो नः प्रचोदयात् देवस्य सवितुर्भजम् वा जयन्तः पुरन्ध्या भगस्य रातिमीमहे देवन्नरः सवितारम् विप्राजज्ञैः स्ववृक्तिभिः नमस्यन्ति धिजेषिताः सोमो जिगाति गातु विद्देवानामेति निष्कृतम् ऋतस्य योनिभासदम् सोमो अस्मभ्यम् द्विपदे चतुष्पदे च पशवे अनमीवा इषस्करत अस्माकमायुर्वर्धयन्नभिमाते सह मानः सोमः सधस्थमासदत आनो मित्रावरुणा घृतैर्गव्योतिमुक्षतम् मध्वारजांसि सुक्रतो पुरुषम् सा नमो वृधा मह्नादक्षस्य राजथः द्राघिष्ठभिश्वजव्रता गृणानाजमदग्निनाजोना वृतस्य सीदतम् पातम् सोममृता वृधा